गजेन्द्र रक्षात्वरितं भवन्तं ग्राहैरिवाहं विषये विकृष्टः अपार विज्ञान दयानुभावं आप्तं सतामष्टभुजं प्रपद्ये गजेन्द्र रक्षात्वरितं भवन्तं ग्राहैरिवाहं विषये विकृष्टः अपार विज्ञान दयानुभावं आप्तं सतामष्टभुजं प्रपद्ये त्वदेकशेषोऽहमनात्मतन्त्रः त्वत्पादलिप्सां दिशता त्वयैव असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि स्वरूपरूपास्त्रविभूषणाध्यैः परत्वचिन्ताम् त्वयि दुर्निवाराम् भोगे मृदोपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम् शक्तिम् शरण्यान्तरशब्दभाजाम् सारम् च सन्तोल्य फलान्तराणाम् त्वद्दास्य हेतोस्त्वयि निर्विशङ्कम् न्यस्तात्मनाम्नाथ बिभर्षि भारम् अभीतिहेतोरनुवर्तनीयम् नाथ त्वदन्यम् न विभावयामि भयम् कुतस्यात् त्वयि सानुकम्पे रक्षा कुतस्यात् त्वयि जातरोषे त्वदेकतन्त्रम् कमलासहाय स्वेनैव माम् रक्षितुमर्हसि त्वम् त्वयि प्रवर्ते मम किम् प्रयासैः त्वय्यप्रवर्ते मम किम् प्रयासैः समाधिभङ्गेष्वपि सम्पतत्सु शरण्यभूते त्वयि बद्धकक्ष्ये अपत्रपे सोढुम किञ्चनोऽहम् दूराधिरोहम् पतनम् च नाथ प्राप्ताभिलाषम् त्वदनुग्रहान् माम् पद्मानि सेव्ये तव पादपद्मे आदेहपातात् अपराधदूरम् आत्मान्तकैङ्कर्यरसं विधेयाः प्रपन्नजनपाथेयम् प्रपित्सूनाम् रसायनम् श्रेयसे जगतामेतत् श्रीमद् अष्टभुजाष्टकम् शरणागतसन्त्राण त्वराद्विगुणबाहुना हरिणा वेङ्कटेशीया स्तुतिस्वीक्रियतामियम् शरणागतसन्त्राण त्वराद्विगुणबाहुना हरिणा वेङ्कटेशीया स्तुतिस्वीक्रियतामियम्।